अथ अष्टादशोऽध्यायः। अर्जुन उवाच सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् त्यागस्य च ऋषिकेश पृथक् केशिनिषूदना सर्वकर्मफलत्यागम् प्राहुः त्यागम् विचक्षणा
सकृत्वा राजसं त्यागः।
फलं लभेत् नद्वेष्ट्य कुशलं कर्म कुशले नानुषज्यते त्यागी सत्त्वसमाविष्टो मेधारी छिन्न संशयः यस्तु कर्म फलत्यागी सत्यागीति अभिधीयते अनिष्टं इष्टं निश्यं च त्रिविधं कर्मणः फलम् भवत्यत्यागिनां प्रेत्य न तु सन्यासिनां क्वचित् अधिष्ठानं तथा कर्ता करणं च पृथग्विधं विविधाश्च पृथग्चेष्टा दैवं चैवात्र पञ्चमम् पश्यत्यकृतबुद्धित्वात् स पश्यति दुर्मतिः। यस्य नाहंकृतो भावो बुद्धिः यस्य न लिप्यते हत्वापि सगिमान् लोकान् नहन्ति न निबध्यते। नियतं संगदहितं अरागद्वेषतः कृतं अफलप्रेप्सुना कर्म यत्तत् सात्विकं उच्यते। क्रियते बहुलायासम् కర్మ యత్ తామసం ఉచ్యతే. ధృత్యుత్సాహ సమన్విత సిద్ధ్య సిద్ధ్యో నిర్వికార కర్త సాత్విక
బుద్ధేర్భేదం ధృతేశ్చైవ గుణతస్త్రివిధం శృణు ప్రోచ్యమానం అశేషేణ పృథక్వేన ధనంజయ. ప్రవృత్తిం చ నివృత్తిం చ కార్యకార్యే భయాభయే బంధం మోక్షం చ యావేత్తి బుద్ధి సా పార్థ సాత్వికీ. యయా ధర్మం అధర్మం చ కార్యం చ అకార్యమేవ చ అయథావత్ ప్రజానాతి బుద్ధిః స పార్థ రాజసీ. అధర్మం ధర్మమితి యా మన్యతే తమసాభృతా సర్వార్థాన్ విపరీతాంశ్చ బుద్ధిః సా పార్థ తామసీ.
ध्यायया धारयते मनः प्राणेन्द्रियक्रियाः योगेनाव्यभिचारिण्या धृतिः स पार्थ सात्विकी ययातु धर्मकामार्थान् धृत्या धारयतेऽर्जुन प्रसङ्गेन फलाकाङ्क्षे धृतिः स पार्थ राजसी यया स्वप्नं भयं शोकं विषादं मदमेव च न विमुञ्चति दुर्मेधा धृतिः स पार्थ तामसी सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभा अभ्यासात् रमते यत्र दुःखान्तं च निगच्छति यत्तदग्ने विषमिव परिणामे अमृतोपमम् तत्सुखम् सात्विकम् प्रोक्तम् आत्मबुद्धिप्रसादजम् विषयेन्द्रियसंयोगात् यत्तदग्रे अमृतोपमम् परिणामे विषमिव तत्सुखम् राजसं स्मृतम् यदग्ने चानुबन्धे च सुखं मोगनम् आत्मनः निद्रालस्य प्रमादोत्थम् तत्तामसमुदाहृतम् न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः ब्राह्मण क्षत्रिय विशाल शूद्राणान्त्य परन्तप कर्माणि प्रविभक्तानि स्वभाव प्रभवै गुणै शमोदमः तपः शौचम् शान्तिराज्यवमेव च ज्ञानम् विज्ञानमास्तिक्यम् ब्रह्मकर्म स्वभावजम् शौर्यं तेजो धृतिः दाक्ष्यं युद्धे चाप्यपलायनम् दानं ईश्वरभावश्च क्षात्रं कर्म स्वभावजम् कृषिः गोरक्षवाणिज्यम् वैश्यकर्म स्वभावजम् परिचर्यात्मकम् कर्म शूद्रस्यापि स्वभावजम् स्वे स्वे कर्मणि अभिरतः संसिद्धिं लभते नरः स्वकर्म निरतः सिद्धिं यथा विन्दति तच्छृणु यतः प्रवृत्तिः भूतानाम् येन सर्वमिदं ततम् स्वकर्मणा तमभ्यर्थ्य सिद्धिं विन्दति मानवः स्वधर्मोऽभिगुणः परधर्मात् स्वनुष्ठितात् स्वभाव नियतम् कर्म कुर्वन्नाप्नोति किल्बीषम् सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् सर्वारम्भादि दोषेण धूमेनाग्निरिवावृता असक्तबुद्धिः सर्वत्र जिगात्मा विगतस्पृहः नैष्कर्म्यसिद्धिं परमाम् सन्यासेनाधिगच्छति। सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे समासेनैव कौन्तेय निष्ठाज्ञानस्य या परा। बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च शब्दादीन् विषयान् त्यक्त्वा रागद्वेषौ युदस्य च विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः। अहंकारं बलं दर्पं कामं क्रोधं परिग्रहं विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते। ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति। समः सर्वेषु भूतेषु मद्भक्तिं लभते परा। भक्त्या माम् अभिजानाति यावान्यश्चास्मि तत्त्वतः ततो माम् तत्त्वतो ज्ञात्वा विशते तदनन्तरम्। सर्वकर्माण्यपि सदा कुर्वाणो मद्यपाश्रयः मत्प्रसादात् अवाप्नोति शाश्वतं पदमव्ययम्। चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः बुद्धियोगम् उपाश्रित्य मच्चित्तः सततम् भव। मच्चित्तः सर्वदुर्गाणि मत्प्रसादात् तरिष्यसि अथ चेत्त्वम् अहङ्कारात् न श्रोष्यसि विनम्क्ष्यसि। यदहङ्कारम् आश्रित्य न योत्स्ये इति मन्द्यसे नित्यैष व्यवसायस्ते प्रकृतिस्त्वाम् नियोक्ष्यति। स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा कर्तुम् नेच्छसि यन्मोहात् करिष्यसि अवशोऽपि तत्। ईश्वरः सर्वभूतानां हृद्देशे अर्जुन तिष्ठति भ्रामयं सर्वभूतानि यन्त्रारूढानि मायया। तमेव शरणं गच्छ सर्वभावेन भारत तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्। इति ते ज्ञानम् आख्यातम् गुह्यात् गुह्यतरम् मया विमृश्यैतत् अशेषेण यथेच्छसि तथा सर्वगुह्यतमम् भूयः शृणु मे परमम् वचः इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्। Thank you. मन्मना भव मद्भक्तो मद्याजी माम नमस्कुरो मामे वैष्यसि सत्यं ते प्रतिजाने प्रियोसि मे सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि माशुचः इदं ते नातपस्ताय नाभक्ताय कदाचन न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति अभिधास्यति भक्तिं मयि परां कृत्वा मामेवैष्यति असंशयः च तस्मात् मनुष्येषु कश्चिन्मे प्रियकृतमः भविता न च मे तस्मात् अन्यः प्रियतरो भुवि अध्येष्यते च ययिमं धर्म्यं संवादं आवयोः ज्ञानयज्ञेन तेनाहं इष्टः स्यामिति मे मतिः श्रद्धावान् अनसूयश्च शृणुयादपि यो नरः सोऽपि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्यकर्मणा कच्चिदेतत् श्रुतं पार्थ त्वयैकाग्रेण चेतसा कच्चिदज्ञानसमोघः प्रनश्चः ते धनञ्जय
अर्जुन उवाच नष्टो मोघः स्मृतिर्लब्धा
त्वत्प्रसादात्मयाच्युत स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव उवाच इत्यहं वासुदेवस्य पार्थस्य च महात्मनः संवादम् इमम् अश्रौषम् अद्भुतम् रोमहर्षणम् प्रसादात् श्रुतवान् एतत् गुह्यम् अहम् परम् योगम् योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् संवादम् इमम् अद्भुतम् केशवार्जुनयोः पुण्यम् कृष्यामि च मुहुर्मुहुः तच्च संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतम् हरेः विस्मयो मे महान् राजन् कृष्यामि च पुनः पुनः यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीः विजयो भूतिः ध्रुवानीतिः मतिर्मम तत्र श्रीः विजयो भूतिः ध्रुवानीतिर्मतिर्मम आ
श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसन्न्यासयोगो नाम अष्टादशोऽध्यायः ಶ್ರೀಕೃಷ್ಣಾರ್ಪಣಮಸ್ತು.